पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। भगिनी श्लोकान् स्मारयति, सर्वे शृण्वन्तु।
ॐ येनाक्षरसमान्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। श्रीगुरुभ्यो नमः।
धन्यवादाः भगिनी। संस्कृतभाषायां दशधातुगणाः सन्ति। तेषु दशसुगणेषु केवलं पञ्चसुगणेषु एव धात्वङ्गे गुणः सम्भवति। धात्वङ्गे गुणकार्यं पञ्चसुगणेषु भवति। अपरेषु पञ्चसुगणेषु धात्वङ्गे गुणः न सम्भवति। भुवादिगणे, अदादिगणे, जुहोत्यादिगणे, तनादिगणे, चुरादिगणे एतेषु पञ्चसुगणेषु गुणकार्यं भवति धात्वङ्गे। आदौ भुवादिगणीयधातूनां प्रसङ्गे धात्वङ्गे गुणचिन्तनम् आरब्धम्। भुवादिगणे सार्वधातुकार्थधातुकयोः पुगन्तलघूपधस्य च इत्याभ्यां सूत्राभ्यां गुणकार्यं सम्भवति। सार्वधातुकार्थधातुकयोः इति गुणविधायकसूत्रेण सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः परः अस्ति चेत् इगन्तधातोः गुणादेशः भवति। पुगन्तलघुपदस्य च किं वदति? धातुः हलन्तधातुः चेत् अपि च लघुपदधातुः अस्ति चेत् तस्य उपधायां स्थितस्य ह्रस्व इक्वर्णस्य गुणः भवति। अनयोः द्वयोः सूत्रयोः प्रसङ्गे निमित्तं किम् इत्युक्ते शप् एव निमित्तं। शप् विकरणप्रत्ययः निमित्तमस्ति। शपं निमित्तीकृत्य गुणकार्यं धात्वङ्गे भवति। शप् प्रत्ययः विकरणप्रत्ययः धातुतिङ्प्रत्ययोः मध्ये आयाति। कर्तरि शप् इति सूत्रेण आयाति। शप् प्रत्ययः षित् अस्ति इत्युक्ते शप् प्रत्यये शकारः इत् संज्ञकवर्णः, शकारः इत् यस्य सः षित्। शप् प्रत्ययः षित् प्रत्ययः अस्ति इति कृत्वा सः शप् प्रत्ययः सार्वधातुकसंज्ञकः भवति। तिङ्क्षित् सार्वधातुकम् इति सूत्रेण शप् प्रत्ययः सार्वधातुकप्रत्ययः भवति। तादृशसार्वधातुकप्रत्ययः धातोः परः अस्ति चेदेव इगन्ताङ्गस्य गुणः भवति अथवा लघुपदधातोः ह्रस्वैकः गुणः भवति इति वयं पठितवन्तः। उदाहरणानि अपि वयं दृष्टवन्तः। भू धातुः, जी धातुः, स्रू धातुः एते धातवः इगन्तधातवः। धातूनाम् अन्ते ह्रस्व इक्वर्णः अस्ति। गुणकार्यं भूत्वा भू भो भवति, जी जे भवति, स्रू सर् भवति। एतेषु धातुषु इगन्तम् अङ्गम् अस्ति। अपि च लघुपदधातवः सन्ति इत्युक्ते बुद्धि बोध् भवति, मुच् मोच् भवति, मुद् मोद् भवति। बुद्ध मुच् मुद् एते धातवः लघुपथधातवः। एतेषु धातुषु उपधायां लघु इक्वर्णः अस्ति इति कृत्वा तस्मात् परं सार्वधातुकप्रत्ययः शप् प्रत्ययः अस्ति इति कृत्वा शपं निमित्तीकृत्य अङ्गे गुणकार्यं भवति। एतत् सर्वम् अस्माभिः ज्ञातमेव। किन्तु एतादृशधातवः, एतादृश इगन्तधातवः, एतादृशलघुपथधातवः तुदादिगणे अपि सन्ति। तुदादिगणे एतादृशधातवः सन्ति चेदपि तुदादिगणे गुणः न भवति। तुदादिगणे गुणकार्यं किमर्थं न भवति इति अस्माभिः ज्ञातव्यं। तत्र कारणं किम् इति अन्वेष्टव्यम्। तुदादिगणे श इति विकरणप्रत्ययः धातुतिङ्प्रत्ययोः मध्ये आयाति। तुदादिभ्यः शः इति गणविकरणप्रत्ययविधायकसूत्रम्। तेन सूत्रेण तुदादिगणे तुदादिभ्यः शः इति सूत्रेण श इति विकरणप्रत्ययः धातुतिङ्प्रत्ययोः मध्ये आयाति। श प्रत्यये यः तालव्यशकारः अस्ति लशक्वतद्धिते इति सूत्रेण तस्य तालव्यशकारस्य इति संज्ञा भवति, पश्चात् तस्य लोपः इति विधिसूत्रेण तस्य शकारस्य लोपः भवति, केवलम् आ एव तत्र अवशिष्यते. इत्युक्ते विकरणप्रत्ययस्य अवशिष्टभागः अकारः तत्र अस्ति. तुजादिगणे यः विकरणप्रत्ययः शा अस्ति, तस्य प्रत्ययस्य स्वभावः कः, सः प्रत्ययः कीदृशप्रत्ययः इत्यपि ज्ञातव्यम्. शप्रत्ययः षित् अस्ति इति कारणतः सार्वधातुकसंज्ञकः, वयं जानीमः एव. अयं शाप्रत्ययः अपि षित् प्रत्ययः एव, इत्युक्ते शाप्रत्यये अपि तालवे शकारः अस्ति इति कृत्वा शकारः इत्यस्य सः इत्यनेन तत्र तिंशित् सार्वधातुकम् इत्यनेन तुदादिगणीयविकरणप्रत्ययः शाप्रत्ययः अपि सार्वधातुकसंज्ञकः एव तिंशित् सार्वधातुकम् इति सूत्रेण. शाप्रत्ययः सार्वधातुकः चेत् तस्मिन् गणे किमर्थं गुणकार्यं न भवति इति एकवारम् अवलोकनीयम्. अपि च तुदादिगणेभ्यः धातुभ्यः कर्तरि शप् इति सूत्रेण औत्सर्गिकतया सामान्यतया शप् इति विकरणप्रत्ययः आयाति, किन्तु तुदादिभ्यः शः इति विधिसूत्रेण अपवादत्वेन शपं प्रबाध्य श इति विकरणप्रत्ययः आयाति इति एकः विषयः. अपि च शाप्रत्ययस्य स्वभावः कः इति परिशीलयामश्चेत् शाप्रत्यये षित्वमस्ति किन्तु पित्वं नास्ति. शा इत्यस्मिन् अत्र यः अकारः श्रूयते सः अकारः उदात्तसंज्ञकः, इत्युक्ते तत्तु स्वरोच्चारणविषयः, तस्मिन् प्रसङ्गे अधिकचिन्तनं मास्तु. शाप्रत्ययः तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञकः भवति. तादृशसार्वधातुकप्रत्ययः धातुभ्यः विहितः भवति चेदपि इगन्तधातुषु लघुपदधातुषु गुणकार्यं न भवति. तुदादिगणे केचन धातवः सन्ति, उदाहरणार्थं रि इति धातुः अस्ति, पि अस्ति, धी अस्ति, क्षी अस्ति, इत्युक्ते एते धातवः इगन्तधातवः एव. रि इति कथनेन अन्ते इकारः इक् प्रत्याहारस्थवर्णः अस्ति चेदपि तत्र गुणः अभूत्वा केवलं रूपं रियति, पीयति, धीयति, क्षीयति इत्यादीनि रूपाणि भवन्ति. तथा एव उकारान्तधातवः अपि सन्ति, गु, कु, नु, सु, ध्रु इत्यादयः उकारान्तधातवः अपि सन्ति. इत्युक्ते तुदादिगणे इगन्तधातवः सन्ति अपि च लघुपदधातवः अपि सन्ति. एवं रीत्या बहवः इगन्तधातवः लघुपदधातवः सन्ति चेदपि तत्र गुणकार्यं न भवति. सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च इत्याभ्यां सूत्राभ्यां द्वारा कार्यं भवति वा इति चिन्तनीयम्. द्वयोः सूत्रयोः प्रसक्तिः तुदादिगणे अस्ति किन्तु प्राप्तिः नास्ति. सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च एतत् सूत्रद्वयं, सूत्रद्वयेन गुणकार्यं तत्र न भवति. तयोः सूत्रयोः प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति, किमर्थम् इति ज्ञातव्यम्. अपि च शाप्रत्यये गुणस्य कृते प्रेरणदायिनी शक्तिः अस्ति, इत्युक्ते तुदादिगणे शा इति प्रत्ययः अस्ति, शाप्रत्यये गुणकार्यं भवितुं प्रेरणदायिनी शक्तिः अस्ति. तादृशशक्तिः अस्ति चेदपि तुदादिगणे गुणः न भवति इति विषयः. तुदादिगणे किमर्थं गुणः न भवति इति सूत्रसहितदृष्टिः अपेक्षिता. तदर्थम् अद्य वयं तत्करपत्रम् एकवारम् अवलोकयामः. तुदादिगणीयधातूनां प्रसङ्गे एकम् उदाहरणम् उक्त्वा समापयामि. तुदादिगणीयप्रथमसदस्यः तुद् धातुः, तत्र मूलरूपम् अस्ति तुद, अनुबन्धलोपे सति तुद्, तुद् व्यधने इत्यस्मिन् अर्थे अस्ति. तत्र तुद् योगः शायोगः तिप्, तुदादिगणे शा इति विकरणप्रत्ययः धातु तिङ् प्रत्ययोः मध्ये आयाति इति कृत्वा तुद् योगः शायोगः तिप्, अनुबन्धलोपे सति तुद् योगः आयोगः ति इति भवति. तत्र रूपं तु तुदति, केवलं वर्णमेलनमेव भवति. धातुः उदुपधधातुः लघुपधधातुः अस्ति चेदपि गुणकार्यम् अभूत्वा तुदति इति रूपमेव सिद्ध्यति. गुणकार्यं भवति चेत् तोदति भवति स्म, किन्तु न भवति. तुदादिगणे गुणः किमर्थं न भवति इति अवगन्तुं करपत्रम् एकवारं पश्यन्तु. अस्य पठनेन इतोपि स्पष्टतया अवगन्तुं शक्नुमः. गोमती भगिनी भवती आरम्भं करोतु.
तुदादिगणे न गुणः. स्वादिगणः तुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्धलोपानन्तरम् अ एव अवशिष्यते इति अस्माभिः दृष्टम्. तयोः गणयोः तिङन्तपदानां साम्यम् अपि अस्ति. यथा द्वादौ भवति तुदादौ लिखति. अप्यत्र ति उभयत्र क्षम्यताम् उभयत्र ति इत्यस्मात् पूर्वम् अकारः. तर्हि किमर्थं गणद्वयम् एतावता प्रायः सर्वे जानीयुः यत् स्वादिगणे गुणकार्यं भवति, तुदादिगणे च गुणकार्यं निषिध्यते. अस्मिन् पाठे किमर्थं तुदादिगणे गुणः न भवति इति परिशीलयिष्यामः. वदामि भगिनि?
वदतु.
भवत्याः सरलतया विस्तरेण एतत् प्रतिपादितम्. स्वादिगणः अस्ति प्रथमगणः, तुदादिगणे अस्ति षष्टमगणः, षष्टमगणः. स्वादिगणे विकरणप्रत्ययमस्ति शप्, तुदादिगणे विकरणप्रत्ययमस्ति शपः इत् संज्ञकलोपानन्तरम् अ अवशिष्यते. तुदादिगणे अपि अनुबन्धलोपानन्तरम् अ एव अवशिष्यते. नशक्वतद्धिते हलन्त्यम् इति सूत्रेण तस्य लोपः इति सूत्रेण इत्संज्ञकः विवरणम् अनन्तरं लोपः एतत् सम्भवति. अ एव अवशिष्यते. धातोः तिङ्प्रत्ययोः मध्ये अ इति विकरणप्रत्ययं भवति. विकरणप्रत्ययं तु समानम् एव, परन्तु वयं पश्यामः स्वादिगणे गुणकार्यं भवति, तुदादिगणे गुणकार्यं न भवति. परन्तु कुत्रापि वयं दृष्टा पश्यामः भवति लिखति इति, भवति इति स्वादिगणे, लिखति इति तुदादिगणे रूपसाम्यमस्ति. भवति भू धातु तदा इगन्धधातु, तो सार्वधातु अर्धधातुयो इति गुणः भवति. लिखति तत्रापि गुणः भवितुम् अर्हति उगन्धलघूपतस्य च इति सूत्रेण, परन्तु गुणकार्यं न सम्भवति. समानमेव विकरणप्रत्ययम् अ, परन्तु गुणकार्यं न सम्भवति. किमर्थम् एतद् न भवति इति वयम् अद्य पश्यामः.
उत्तमम्, अग्रे पठतु भगिनि.
आम्, दृष्टान्ते भू धातुः इगन्धः अस्ति. शप् प्रत्यये परे इगन्धभू धातोः ऊकारस्य गुणादेशो भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण. बुध धातोः उभधायां लेखु इक् वर्णः, अतः शप् प्रत्यये परे तस्य बुध धातोः उकारस्य गुणादेशो भवति उगन्धलघूपदस्य च इति सूत्रेण. आहत्य स्वादिगणे इगन्धधातूनाम् इक् वर्णस्य गुणः, उपधायां ह्रस्व इक् वर्णस्य गुणः च. अधुना तुदादिगणे अवस्थाद्वयमस्ति चेदपि गुणः न. इत्युक्तौ इगन्धधातूनाम् इक् वर्णस्य गुणः न, तथा हि उपधायां ह्रस्व इक् वर्णस्य गुणः न. यद्यपि तुदादिगणे श विकरणप्रत्ययः षित् अस्ति, स्वादिगणस्य शप् इव, तथापि तुदादौ गुणः न भवति. दृष्टान्तम् उपरि यदा दत्तं भूधातोः लिख धातोः, भूधातोः इगन्धमस्ति ऊ अस्ति, ऊ इक् प्रत्याहारवर्णे वर्णे अस्ति. सो सार्वधातुक अर्धधातुकयोः इति सूत्रेण उकारस्य गुणः भवति, भू भो भवति. परन्तु लिख इति धातु अस्ति तुदादिगणे, तत्र उपधायाम् इकारः अस्ति, उपधायाम् इकारः अस्ति चेत् उगन्तलघूपतस्य च इति सूत्रेण गुणकार्यं भवितुमर्हति, परन्तु तत्र गुणकार्यं न भवति, गुणकार्यं भवति चेत् लेखति इति भवति, तत्र तु लिखति एव रूपम्। आहत्य पादिगणे एकवर्णस्य गुणः भवति, तुदादिगणे न भवति। शित् अस्ति द्वयोः गणयोः विकरणप्रत्ययं, शप् अपि श अपि सार्वधातुकमस्ति, शित् अनेन कारणेन सार्वधातुकमस्ति, तद् देन् आल्सो गुणः न भवति। तदेव दत्तमस्ति भगिनि?
तदेव भगिनि, उत्तमं।
भगिनि एकः संशयः, भगिनि तुदादिभ्यः शः इति अस्ति किल, तद् अपवादसूत्रम् इति उक्तवती, कर्तरि शप् इति अस्ति, तस्य अपवादसूत्रं तुदादिभ्यः शः इति, कथं ज्ञायते अपवादसूत्रम् इति कथं ज्ञातुं शक्नुमः? तद् शप् स्थाने शकारः आदेशः वा कथम्?
अहं किं ज्ञातवती तस्मिन् प्रसङ्गे इत्युक्ते, सूत्राणि षड्विधानि इति वयं पठितवन्तः, तेषु अपवादसूत्रम् इति न लिखितमस्ति, इत्युक्ते अपवादः इति कथयितुं केचन निकषाः सन्ति। सर्वेषु गणेषु आदौ कर्तरिशप् इति सूत्रेण औत्सर्गिकतया उत्सर्गसूत्रं सामान्यसूत्रं कर्तरिशप् आयाति, पश्चात् शपं प्रपाद्य भिन्नगणेषु भिन्न विकरणप्रत्ययविधायकसूत्राणां द्वारा भिन्नविकरणप्रत्ययाः आयान्ति। अपि च महोदयस्य प्रश्नः अस्ति, अपवादसूत्रम् इति कथं वक्तव्यम् इति तत्र प्रश्नः आगतः। अपवादसूत्रम् इति कथयितुं तत्र निकषाः के इत्युक्ते, निरवकाशत्वम् एव अपवादस्य बीजं भवति। यत्र कुत्रापि द्वयोः सूत्रयोः प्रसक्तिः अस्ति चेत् एकस्य सूत्रस्य कृते अन्यत्र लब्धावकाशः नास्ति चेत् तत् सूत्रं निरर्थकं भवति। द्वयोः सूत्रयोः कृते अन्यत्र लब्धावकाशः अस्ति वा इति प्रथमतया द्रष्टव्यम्। यस्य सूत्रस्य कृते लब्धावकाशः नास्ति तस्य कृते निरवकाशत्वं भवति, तत् सूत्रं निरवकाशं भवति इति कृत्वा, इत्युक्ते पाणिनीय अष्टाध्याय्यां बहूनि सूत्राणि सन्ति, यत्किमपि सूत्रं निरर्थकम् अथवा निरवकाशं मा भवेत् इति पाणिनेः आशयः अस्ति। भुवादिगणं त्यक्त्वा चुरादिगणं त्यक्त्वा अन्येषु गणेषु, इत्युक्ते जुहोत्यादिगणे श्लू भवति, अदादिगणे शप् लुक् भवति, तत् त्यक्त्वा अन्येषु गणेषु अपवादत्वेन भिन्नविकरणप्रत्ययाः शपं प्रपाद्य आयान्ति, इत्युक्ते अपवादबलेन तत्र कार्यं भवति। किमर्थमित्युक्ते तुदादिभ्यः शः इति सूत्रं तुदादिगणे कार्यं न करोति चेत् अन्यत्र कर्तुं न शक्नोति इति कृत्वा, अपवादबलेन तुदादिभ्यः शः इति सूत्रेण शपं प्रबाध्य कार्यं भवति तुदादिगणे इति।
धन्यवादः।
भवतः चिन्तनं किं तस्मिन् प्रसङ्गे?
संशयः आसीत् कथम् इति ज्ञातुमेव,
किन्तु
स्पष्टतया तुदादिभ्यः शः इति उक्तमिति कारणेन तुदादिगणे शः एव आगच्छति इति ज्ञायते, किन्तु अपवादरूपेण अस्ति वा कथम् इति ज्ञातुमेव पृष्टवान्।
अग्रिमे परिच्छेदे किं लिखितमस्ति इति एकवारं परिशीलयामः। शोभा भगिनी, भवती पठतु।
एकः प्रश्नः, तत्र कर्तरिशप् इति प्रथमम् आगच्छति सूत्रसङ्ख्यानुसारे, अपि च तुदादिभ्यः शः इति नन्तरम् आगच्छति, अतः तत्र प्रथमं कर्तरिशप् इत्यस्य प्रसक्तिः अस्ति वा?
मया किं पठितम् इत्युक्ते, तत्र पूर्वसूत्रं परसूत्रम् इति तादृशचिन्तनं तत्र नास्ति,
तत्र नास्ति, अस्तु,
इत्युक्ते तत्र बाध्यबाधकभावः अथवा सूत्राणां बलाबलम् इति एकः विषयः अस्ति, पूर्वपरनित्यान्तरङ्गानाम् उत्तरोत्तरं बलीयः इति एकं, तेन पूर्वसूत्रं प्रति परसूत्रं बलवत् भवति तादृशचिन्तनं तत्र अस्ति. अस्मिन् प्रसङ्गे उदाहरणार्थं तुदादिगणे कर्तरि शप् अपि च तुदादिभ्यः शः इत्यनयोः प्रसङ्गे केवलम् अपवादबलेन एव, इत्युक्ते इदं सूत्रम् अत्र कार्यं न करोति चेत् अन्यत्र तस्य लब्धावकाशः नास्ति कार्यं भवितुम् इति
अपवादबलत्वेन एव. अस्तु, धन्यवादः भगिनि.
भगिनि, अहं दिस् वे ऐ हेव् रेड् लैक् कर्तरि शप् इति कर्तृर्थे सार्वधातुके भवति, तत्र गणचिन्तनं नास्ति न, कर्तरि शप् सार्वधातुके कर्तृर्थे भवति, परन्तु तुदादिगणे यदा भवती वद उक्तवती तत्र तु तुदादिगणे एव शप् प्रत्ययः भवति, अतः कर्तरि शप् इत्यस्य बृहत् क्षेत्रमस्ति, तुदादि भ्यः शः तत्र क्षेत्रं लघु अस्ति.
भवती भिन्नरीत्या उक्तवती, उत्तमं चिन्तनम्.
पठामि वा?
पठतु.
भ्वादिगणस्य धात्वङ्गे गुणः यत्र यत्र भवति तस्य गुणस्य कारणम् अस्माभिः ज्ञायते. इगन्तधातुः भवतु, लघुपधधातुः भवतु, उभयत्र गुणस्य निमित्तं शप् इति विकरणप्रत्ययः. शप् विकरणप्रत्यये शकारस्य इत्संज्ञा, लोपः च इति कारणतः शप् षित्, यस्य शकारः इत् सः षित्. तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण शप् सार्वधातुकम्, शप् सार्वधातुकसंज्ञकप्रत्ययः इति कारणात् सार्वधातुकार्धधातुकयोः इति सूत्रेण इगन्तधातौ इकः गुणः, पुगन्तलघुपदस्य च इति सूत्रेण धातोः उपधायां ह्रस्व इकः गुणः च इति दृष्टवन्तः. नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः. अत्र यथा चर्चितं, भ्वादिगणस्य धात्वङ्गे गुणः यदा भवति अपि च यत्र यत्रापि भवति तत्र तस्य गुणस्य कारणम् इत्युक्ते वयं जानीमः तत्र शप् इति प्रत्ययः आगच्छति, विकरणप्रत्ययः, तेन कारणेन गुणः भवति इति. यदि तत्र धातोः इक् भवेत् अन्ते, अङ्गस्य अन्ते इक् भवेत् अथवा धातोः लघु उपधा भवेत् ते द्वयम् अपि तत्र गुणः भवति यदि शप् इति विकरणप्रत्ययः आगच्छति चेत्. तदा शप् इति विकरणप्रत्ययस्य वैशिष्ट्यं किम् अस्ति इत्युक्ते तत्र श इत्यस्य इत्संज्ञा भवति अपि च लोपः अपि भवति. तत्तु लषक्वतद्धिते अपि तस्य लोपः इत्यनेन इति वयं ज्ञातवन्तः. अपि च यदा शकारस्य इत्संज्ञा भवति तत् षित् इति उच्यते. यदा षित् इति नामकरणं भवति तत्र तिङ्क्षित् सार्वधातुकम् इत्यनेन तद् तिङ्क्षित् सार्वधातुकम् इति किं वदामः तत्र तादृशः प्रत्ययः भवति. शप् सार्वधातुकसंज्ञकः प्रत्ययः भवति. अपि च तेन कारणेन सार्वधातुक आर्धधातुकयोः इति सूत्रेण तत्र गुणः भवति. यदि इगन्तः अस्ति चेत् तेन, अपि च पुगन्तलघुपदस्य इति उपधायां ह्रस्व इक् अस्ति चेत् ते द्वे गुण अर्हाः भवन्ति इति कृत्वा गुणः भवति. तत्र किं कारणं चेत् शपः शप् इत्यस्मिन् प्रेरणादायिनी शक्तिः अस्ति इति अपि वयं जानीमः. शकारः तत्र षित् भवति किन्तु पकारः पित् भवति, तस्य अपि इत् संज्ञा भूत्वा पित् भवति. अतः तत्र शकारः गुणं प्रेरयति किन्तु पकारः गुणस्य अवरोधं न करोति, अतः तत्र द्वे अपि आवश्यकं। शकार एव अस्ति चेत् गुणः न भवति, यथा तुदादिगणे अस्ति, श एव अस्ति इति कृत्वा।
साधु भगिनि, साधु उक्तवती। एतत् सर्वम् अस्माभिः ज्ञातमेव शप्रत्ययस्य प्रसङ्गे उक्तमस्ति। शप्रत्ययः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः, तादृशसार्वधातुकसंज्ञकप्रत्ययः शप्रत्ययः परः अस्ति इति कृत्वा इगन्तधातोः गुणः भवति। कदा? सार्वधातुकार्थधातुकयोः। नरेश महोदय, भवान् पठतु अग्रे।
अधुना तुदादिगणे विकरणप्रत्ययः शः, स च विकरणप्रत्ययः, श इत्यस्य शकारस्य इत् संज्ञा, लोपः च इति कारणतः श षित् यस्य शकारः इत् सः षित्। तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण श प्रत्ययः सार्वधातुकसंज्ञः, तर्हि तुदादिगणे अपि सार्वधातुक आर्धधातुकयोः इति सूत्रेण इगन्तधातौ एकः गुणः भवेत्। पुगन्तलघुपधस्य च इति सूत्रेण धातोः उपधायां ह्रस्व एकः गुणः च भवेत्। इदं सर्वं सत्यं, सत्यपि गुणः न भवति। तर्हि कः भेदः? श प्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत् किमर्थं भवादिगणे यत्र गुणः भवति तत्र तुदादिगणे न भवति? अधुना वयं पठामः तुदादिगणे अपि विकरणप्रत्ययः श अस्ति। श अस्ति चेत् शकारस्य इत्संज्ञा भवति, तस्य लोपः भवति अपि। शकारस्य इत्संज्ञा भवति चेत् एतत् प्रत्ययः षित् अस्ति। तिंशित् सार्वधातुकं सूत्रेण सः तत्र सार्वधातुक आर्धधातुकयोः सूत्रेण इगन्त धातु अस्ति चेत् अत्र एकः गुणः भवति, तत् प्रसक्ति अस्ति। एवं पुगन्तलघुपदस्य अत्र उपधायां ह्रस्व एकः गुणः अस्ति चेत् तत्र अपि गुणः प्रसक्ति अस्ति। परन्तु तुदादिगणे गुणः न भवति, तत्कारणं किम्? अत्र प्रेरणादायिनी शक्ति श प्रत्ययः अस्ति, परन्तु अत्र गुणः न भवति, तत् वयं पठामः।
तदेव महोदय, सम्यक् प्रतिपादितवान्। पूर्वस्मिन् परिच्छेदे भुवादिगणस्य प्रसङ्गे शप् इत्यस्य प्रसङ्गे उक्तमस्ति, किन्तु अत्र तुदादिगणे कीदृशं कार्यं भवति इति किञ्चित् चिन्तनम् अत्र दत्तमस्ति। तुदादिगणे अपि इगन्तधातवः सन्ति, तुदादिगणे अपि लघुपदधातवः सन्ति। तेषु धातुषु सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च इत्यनयोः सूत्रयोः प्रसक्तिः अस्ति वा? इगन्तधातुः अस्ति, अपि च शप्रत्ययः सार्वधातुकप्रत्ययः, तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः शप्रत्ययः अस्ति चेदपि तुदादिगणीयधातुषु, इगन्तधातुषु अथवा लघुपदधातुषु गुणकार्यं न भवति। किमर्थम् इति ज्ञातव्यम्। शप्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेदपि गुणः न भवति। अत्र प्रश्नाः सन्ति, पठतु महोदय.
अत्र केचन प्रश्नाः. शपि, शप् प्रत्यये पकारस्य किं कार्यम्? पकारः नास्ति चेत् कः प्रभावः? तुदादिगणे विकरणप्रत्ययः श एव, शप् न, नाम प्रकारः पकारः नास्ति. तर्हि पकारस्य अभावे किं भवति? अस्माकम् अध्ययनस्य आरम्भे एव एवम् उक्तम् आसीत्. अत्र अस्ति भवादिगणे शप् प्रत्ययः अस्ति. अत्र पकारस्य किं कार्यम् अस्ति? पकारः नास्ति चेत् तत्र का भवति? तुदादिगणे विकरणप्रत्ययः श अस्ति, न तु शप् अस्ति, पकारः नास्ति, तस्य किं प्रभावः अस्ति? तत् वयं पठामः.
शकारस्य महत्वम् अस्ति, पकारस्यापि महत्वम् अस्ति. बिन्दुद्वयं दत्तमस्ति, पठतु.
विकरणप्रत्यये इत्संज्ञकः इत्संज्ञक शकारस्य कार्यं गुणस्य कृते प्रेरयति. धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति. द्वितीय अस्ति विकरणप्रत्यये इत्संज्ञक पकारस्य कार्यं, तस्य पकारस्य अभावे गुणस्य अवरोधः भवति. अत्र प्रथमबिन्दुः अस्ति विकरणप्रत्यये शकार अस्ति, तस्य शकारः गुणकार्यं प्रेरयति. द्वितीय बिन्दुः अस्ति विकरणप्रत्यये इत्संज्ञकः पकारस्य कार्यं, तस्य पकार अस्ति चेत् तत्र गुणस्य अवरोधः न भवति. अत्र शकारस्य पकारस्य कार्यमस्ति, शकारः गुणः प्रेरयति, परन्तु पकारः अस्ति चेत् अवरोधं न भवति, पकारस्य अभावे अवरोधं भवति.
उत्तमम्. अवरोधः अव उपसर्गपूर्वकः रुद्धधातुकः निर्मितं पदम् अवरोधः.
तत्र शकारः गुणकार्यं प्रेरयति, तत्र पकारः यदि तस्य अभावे अवरोधः भवति, तस्य भावे गुणस्य दृढीकरणं भवति इति वक्तुं शक्नुमः वा?
उत्तमम्. इत्युक्ते तस्य अभावे अवरोधः, भावे तस्य दृढीकरणम्. उत्तमं महोदय, तादृशरीत्या अपि प्रतिपादयितुं शक्नुमः. एतावत् अत्र पकारस्य महत्वम् अस्ति, इत्युक्ते पकारः नास्ति चेत् गुणः न भवति एव. पित्वमपि अपेक्षितं, गुणकार्यं भवितुं शकारः अपेक्षितः, अपि च पकारः अपि आवश्यकः. तदर्थमेव भुवादिगणे शप् अस्ति इति कृत्वा तत्र गुणकार्यं भवति, किन्तु तुदादिगणे केवलं शा अस्ति, पित्वं नास्ति, तदर्थं गुणस्य अभावः. अग्रे सरेम. इदानीं साधु महोदय, धन्यवादाः. नरसिंह हेग्डे महोदय, भवान् पठतु, अग्रे किं लिखितमस्ति?
विकरणप्रत्यये इत्संज्ञकशकारस्य कार्यः गुणस्य कृते प्रेरयति. धातौ अन्तर्भूतस्य स्वरस्य गुणः कारयति. विकरणप्रत्यये इत्संज्ञकपकारस्य कार्यः तस्य पकारस्य अभावे गुणस्य अवरोधः भवति. इत्संज्ञकशकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः. सूत्रदृष्ट्या पकारस्य कार्यं कथं भवति? वादिगणे विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम् अनुमतिः अस्ति. अतः सारल्यार्थं वादिगणे पकारः पकारसम्बद्ध सूत्रसहितचर्चा न जाता, परन्तु तुदादिगणे पकारस्य अभावे गुणावरोधः स च अवरोधः. कथम् इति अवश्यं द्रष्टव्यं. लिक् धातो उदाहरणम् अत्र अवलोकयामः. लिक् लट्लकारविवक्षायां प्रथमपुरुष एकवचने विकरणप्रत्ययस्य योजने लिक् योगश योगति लशक तद्धिते इत्यनेन सूत्रेण शकारस्य संज्ञा तस्य लोप इत्यनेन शकारलोपः. लिक् योग अयोगति श अ षित् अस्ति अतः तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण श श प्रत्यये सर्वधातुकं संज्ञकः अपि अस्ति. उगन्तलघुपदस्य च इत्यनेन सूत्रेण लिक् धातोः उपधायां ह्रस्व इकारस्य गुणः प्रसक्तिः अस्ति, अतः अनेन लेखति इति स्यात्.
तावत्पर्यन्तं वदतु.
विकरणप्रत्यये संज्ञकशकारस्य कार्यं गुणस्य कृते प्रेरयति. शकारं गुणकार्यं प्रेरयति. विकरणप्रत्यये संज्ञकपकारस्य कार्यं तस्य पकारस्य अभावे गुणस्य अवरोधः भवति. पकारं गुणस्य अवरोधं न करोति. इस्संज्ञकशकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः. इस्संज्ञकशकारस्य कार्यं कथं गुणकार्ये सहायं करोति इति वयं जानीमः. शकारश्चित्तश्चकारस्य इस्संज्ञा अस्ति चेत् षित् भवति, तिङ्क्षित् सार्वधातुक इत्यनेन चिङ्क्षित् तिङ् सार्वधातुकप्रत्यये भवति, सार्वधातुक अर्धधातुक इत्यनेन गुणकार्यं भवति. सूत्रदृष्ट्या पकारस्य कार्यं कथं भवति? वादिगणे विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यम् अनुमतिः अस्ति. अतः सारल्यार्थं वादिगणे पकारस्य सम्बद्धसूत्रसहिता चर्चा न जाता. वादिगणे शपः अस्ति, अत्र पकारस्य विशेषसूत्रसहिता चर्चा न जाता, परन्तु तुदादिगणे पकारस्य अभावे गुणारोधः. पकारस्य विशेषणम् अत्र तुदादिगणे भवति. किमर्थम् इत्युक्ते अत्र पकार न अस्ति, स च अवरोधः कथम् इति अवश्यं द्रष्टव्यम्. एक उदाहरणे सहित दृष्टामः. लिक् धातो
उत्तमं महोदय, साधु उक्तवान्. अस्मिन् परिच्छेदे किं लिखितमस्ति? भुवादिगणे पकारस्य उपस्थितिः अस्ति, भुवादिगणे शप् विकरणप्रत्ययः अस्ति, शप् इत्यस्मिन् पित्वम् अस्ति, पकारस्य उपस्थितिः अस्ति. पकारस्य उपस्थितिः अस्ति इति कारणतः गुणकार्यार्थम् अनुमतिः अस्ति.
अनुमतिः अस्ति, अवरोधं नास्ति.
अवरोधः नास्ति, सः एकः विषयः. सारल्यार्थं समस्तपदं
सिम्प्लिफिकेशन्
उत्तमं महोदय. अत्र वदतु
भगिनि, वदतु. अवरोधः भावे अवरोधः इति वयं वदामः, तद् केवलं व्याख्यानदृष्ट्या एव किल, किमपि सूत्रदृष्ट्या अस्ति वा?
अङ्गीकरणम् इति भवितुम् अर्हति.
महोदयः उक्तवान् केवलं व्याख्याने लिखितमस्ति वा, नो चेत् तदर्थमपि सूत्रमस्ति वा?
अग्रे अग्रे आयाति न सार्वधातुक अपित्.
सुन्दरमहोदय, भवान् वदतु सारल्यार्थम् इत्यस्मिन् प्रसङ्गे.
सारल्यार्थम् इति सरलस्य भावः तदितप्रत्ययः सारल्यम् इति, तदर्थमेव
सरलस्य भावः सारल्यं. यत्र सारल्यार्थं सारल्याय इदम् इति विग्रहवाक्यं वक्तव्यं भवति. तस्मिन् पदे चतुर्थी तत्पुरुषसमासः अस्ति. किमर्थं सारल्यार्थं? लिक् धातोः उदाहरणं दत्तमस्ति अस्माकम् अवगमनार्थम्. अत्र महोदय लिक् धातोः उदाहरणम् इदानीं वदतु.
लिक् योग अयोगति श श इत्युक्ते अ षित् अस्ति, अतः तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण शकार श प्रत्यय सार्वधातुकं संज्ञकः अपि अस्ति. उगन्तलघुपद्यस्य च इत्यनेन सूत्रेण लिक् धातोः उपधायां ह्रस्व इकारस्य गुणः प्रसक्तिः अस्ति, अतः अनेन लेखति इति स्यात्। लिक् योग अयोगति अशप् प्रत्ययस्य प्रतिनिधिः अस्ति, इत्यनेन अ सार्वधातुकं भवति, सार्वधा तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण सार्वधातुकं संज्ञा भवति, उगन्तलघुपदस्य च इत्यनेन सार्वधातुक अर्धधातुकयो इत्यनेन गुणस्य प्रसक्तिः अस्ति, पुगन्तलघुपदस्य च इत्यनेन अपि गुणस्य प्रसक्तिः अस्ति। किमर्थमित्युक्ते अत्र उपादायं ह्रस्व इकार अस्ति, अत्र पुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः भवति, परन्तु अत्र भवति चेत् लेखति भवनीयं, परन्तु लेखति न भवति। शवितरणप्रत्ययस्य न केवलं षित् अपि तु अपित्, यस्मिन् इत्संज्ञकपकारः नास्ति स अपित् इति उच्यते। अत्र केवलं शकारः अस्ति, पकारः न अस्ति, इत्यनेन अपित् अस्ति, इत्यनेन गुणकारणं न भवति, लेखति इति न भवति, लिखति इति भवति।
साधु महोदय, अत्र तु वदतु महोदय,
एकः सन्देहः, भ्वादिगणे लेखति इत्यपि एक अन्यत् धातुः अपि अस्ति, लेखति इति भ्वादिगणे गतौ, लेखति गतौ इति।
अत्र तु तुदादिगणीयधातोः अर्थः तु अक्षरविन्यासे, भ्वादिगणे लिख् धातुः, लघुपदधातुः, किन्तु भिन्न अर्थे अस्ति वा?
हा, गतौ लेखति इति गतौ इति अर्थः, गच्छति इति,
किन्तु तस्मिन् अर्थे वाक्यं
बालकः विद्यालयं लेखति, तदेव गच्छति,
बालकः विद्यालयं लेखति, अस्तु अस्तु। इतोपि ज्ञातव्यः अंशः कः, लिखिति अङ्गम् अस्ति, धातुः एव अत्र अङ्गम् अस्ति, शाविकरणप्रत्ययः अस्ति,
बालकः विद्यालयं लेखति आङ्ग्लभाषायां कथं भवति, बालकः विद्यालयं लेखति,
बाय्स्
गो टु स्कूल्, लेखति
लेखति इति गतौ, गच्छति इति
अर्थः,
अत्र लिखिति लघुपदम् अङ्गम् अस्ति, लघुपदम् अङ्गमस्ति चेदपि, शा इति सार्वधातुकप्रत्ययः अस्ति चेदपि, अत्र पुगन्तलघुपदस्य च इति सूत्रेण गुणः न भवति, गुणः भवति चेत् तस्य रूपं लेखति, किन्तु लेखति इति असमीचीनं रूपं, लिखति एव साधुरूपं, किमर्थं तत्र गुणः न भवति इति प्रश्ने सति शाविकरणप्रत्ययस्य स्वभावः ज्ञातव्यः। तस्मिन् प्रत्यये षित्वम् अस्ति किन्तु पित्वं नास्ति, केवलं षित् प्रत्ययः किन्तु अपित् प्रत्ययः, अत्र आ इति योजनेन किं भवति, नकारात्मक अर्थः आयाति, इत्युक्ते नैतत् पुरुषसमासः, सत्यम् असत्यं, धर्मः अधर्मः, एवं रीत्या अत्र अयं शा प्रत्ययः, पित् नास्ति अतः अपित् प्रत्ययः, तदेव अत्र लिखितमस्ति। यस्मिन् प्रत्यये इत् संज्ञक पकारः नास्ति सः प्रत्ययः अपित्। अस्मिन्नेव प्रसङ्गे एकं नूतनं सूत्रं ज्ञातव्यं, तत् सूत्रमेव सार्वधातुकम् अपित्, इत्युक्ते यः प्रत्ययः सार्वधातुकः अस्ति अपि च अपित् प्रत्ययः अस्ति, तादृशप्रत्ययः णित् भवति, इत्युक्ते तस्मिन् प्रत्यये णित्वम् अध्यारोपितं भवति। यः प्रत्ययः सार्वधातुकः अपि च अपित् प्रत्ययः अस्ति चेत् तस्मिन् प्रत्यये णित्वम् अध्यारोपितं। सार्वधातुकम् अपित् इति सूत्रम् अतिदेशसूत्रम्, सूत्रं षड्विधम् उच्यते इति वाक्यं वयं पठितवन्तः, षड्विधसूत्राणि सन्ति, सूत्राणां प्रभेदाः अधोभागे लिखिताः सन्ति, तेषु षट्सु सूत्रेषु अतिदेशसूत्रम् अन्यतमम्। सार्वधातुकम् अपित् इति सूत्रम् अतिदेशसूत्रम्, अतिदेशसूत्रम् इति कथनेन यस्य प्रत्ययस्य स्वभावः तादृशः नास्ति, नूतनस्वभावः तस्मिन् प्रत्यये अध्यारोपितं भवति, नूतनस्वभावः तस्मिन् अध्यारोप्यते। तस्मिन् प्रसङ्गे इतोपि ज्ञातुम् एकवारं सूत्रं पठेम, अत्र चन्द्रमौळी महोदय भवान् पठतु।
सार्वधातुकम् अपित् अपित् नित् अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित् अर्थः एवम् अपित् सार्वधातुकं नित् इव अस्ति अयम् अतिदेशः इत्युच्यते अतिदेशः नाम यस्य स्वभावः तथा नास्ति सः तथा भवतु इति विधानं यथा सिंहो मानवकः मानवकः सिंहः नास्ति परन्तु वीरो मानवकः सिंहः इव अतः मानवके सिंहस्य वीरलक्षणम् अध्यारोपितम् यस्मिन् प्रत्यये नकारस्य इत्संज्ञा अस्ति सः प्रत्ययः नित् यस्य नकारः इत् सः नित् नित् प्रत्ययानां किञ्चन विशिष्टं कार्यम् अस्ति तत् किं कार्यम् इति सम्प्रति उच्यते अत्र तावदेव अवगच्छतु सार्वधातुकम् अपित् इति सूत्रेण यः प्रत्ययः अपित् सः यद्यपि साक्षात् नित् नास्ति तथापि नित् इव भवति अतः यथा नित् प्रत्ययः कार्यं करोति तथा अपित् प्रत्ययः अपि कार्यं करोति तच्च कार्यं किम् इति इदानीं पश्याम अत्र एक सूत्रस्य सार्वधातुकम् अपित् इति सूत्रस्य विश्लेषणं कृतवान् तत्र सार्वधातुकं साक्षात् तत्र नित् नास्ति किन्तु नित् इव यदि अपित् अस्ति चेत् तत् सार्वधातुकम् अपित् प्रत्यय नित् इव आचरति इति कार्यं करोति इति अर्थः तत्र उदाहरणं दत्तवान् सिंहो मानवकः इति मानवकः साक्षात् सिंहः नास्ति परन्तु तावदेव तादृशं वीरः अस्ति इति तावदेव सार्वधातुकम् अपित् यदि तदादिगणीय केवलं षकारः अस्ति तत्र पकारः नास्ति अतः तत् प्रत्ययः पित् भवति किन्तु षित् कारणेन तिंषित् सार्वधातुकं तत् सूत्रे अनेन सूत्रेण तत् सार्वधातुकं भवति किन्तु अपित् अस्ति अतः सार्वधातुकम् अपित् भवति तत् प्रत्ययः सार्वधातुकम् अपित् नित्यव भवति अतः नित्यव आचरति इति अत्र दत्तवन्तः तत् कार्यं किं नित् कार्यं किम् इति अग्रे पश्यामः अन्यत् सूत्रेण अग्रे पठामः
साधु उक्तवान् धन्यवादाः आवरणे किं लिखितमस्ति अपित् अपित् इत्युक्ते नित् यः प्रत्ययः सार्वधातुकः अस्ति अपि च अपित् प्रत्ययः अस्ति सः प्रत्ययः नित् इव कार्यं करोति यस्य प्रत्ययस्य स्वभावः तथा नास्ति सः तथा भवतु इति अत्र विधानं तदवगन्तुमेव उदाहरणं दत्तमस्ति सिंहः माणवकः माणवकः इत्युक्ते लघुवयस्कः लघुवयस्कः बालकः माणवकः इत्युक्ते षोडशवर्षपर्यन्त प्रथमवयस्कः अत्र अल्पार्थे क इति प्रत्ययस्य योजनेन पदं सिद्ध्यति यथा महोदयेन उक्तं सः साक्षात् सिंहः नास्ति किन्तु तस्मिन् वीरत्वमस्ति वीरलक्षणमस्ति वीरलक्षणमस्ति इति कृत्वा सः माणवकः सिंहः इव तस्मिन् वीरत्वम् अस्ति इति कारणतः सिंहः इव वीरत्वं प्रदर्शयितुं शक्नोति इति तत्र आशयः माणवके सिंहस्य वीरलक्षणम् अध्यारोपितम् तादृशरीत्या एव अत्रापि यः सार्वधातुकप्रत्ययः अस्ति अपि च अपित् अस्ति तस्मिन् नित्वस्वभावः अध्यारोप्यते अध्यारोप्यते इति पदस्य कृते पर्यायवाचिनः शब्दाः सन्ति वा कोऽपि वदतु अध्यारोपणम् अध्यारोप्यते अध्यारोपितम् इत्यादिषु स्थलेषु पर्यायवाचिनः शब्दाः अन्ये सन्ति वा कोऽपि वदतु
आवरणं कर्तुं भवति वा वेल् इति सूपर् इम्पोसिशन् आवरणं भवति वा
अध्यारोपणम् इत्युक्ते अतिशयेन आरोपणम् इति
अतिशयोक्ति अलङ्कार इव
एतावत् अत्र यत् वीरलक्षणं सिंहे वर्तते तादृशं वीरलक्षणं बालके अपि अस्ति इति तत्र आशयः सार्वधातुकम् अपि इत्यस्मिन् प्रसङ्गे इतोपि किञ्चित् चिन्तनं कुर्मः तिङ् प्रत्ययाः सन्ति तिप् तस् झि सिप् तस्थ मिप् वस् मस् ता आतां झ था सा थां ध्वम् इड्वहि महिङ् इति अष्टादश तिङ् प्रत्ययाः सन्ति ते सर्वे प्रत्ययाः तिङ् प्रत्ययाः इति कृत्वा तिंशित् सार्वधातुकम् इत्यनेन ते सर्वे अष्टादशप्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति. तेषु प्रत्ययेषु प्रथमपुरुष एकवचनप्रत्ययः तिप् अस्ति, मध्यमपुरुष एकवचनप्रत्ययः सिप् अस्ति, उत्तमपुरुष एकवचनप्रत्ययः मिप् अस्ति. एते त्रयः प्रत्ययाः आदौ पित् प्रत्ययाः, इत्युक्ते अष्टादशप्रत्ययेषु प्रथमपुरुष एकवचनप्रत्ययः, मध्यमपुरुष एकवचनप्रत्ययः, उत्तमपुरुष एकवचनप्रत्ययः आदौ पित् प्रत्ययाः भवन्ति. अन्येषु प्रत्ययेषु पित्वं नास्ति. तस् झि इति कथनेन द्विवचनप्रत्ययः तस् अस्ति, बहुवचनप्रत्ययः झि अस्ति. ते प्रत्ययाः अपित् प्रत्ययाः. एतावता अष्टादशसु प्रत्ययेषु त्रयः प्रत्ययाः पित् प्रत्ययाः सन्ति, अन्ये सर्वे पञ्चदश प्रत्ययाः अपित् प्रत्ययाः आदौ. किन्तु तेषां कृते अपि अपवादाः सन्ति. अपवादत्वेन मध्यमपुरुषस्य प्रत्ययस्य प्रसङ्गे किञ्चित् अन्यत् कार्यमपि भवति केषुचित् स्थलेषु. अन्ये पञ्चदश प्रत्ययाः पित्वं नास्ति इति कारणतः अपित् प्रत्ययाः भवन्ति. उदाहरणं वदन्ती अस्मि. एते सर्वे प्रत्ययाः सार्वधातुकाः एव, किन्तु तेषु अष्टादशसु प्रत्ययेषु केवलं त्रयः प्रत्ययाः एव आदौ पित् प्रत्ययाः. अन्ये प्रत्ययाः सार्वधातुकम् अपित् इति सूत्रेण नित्वं तेषु अध्यारोपितं भवति. इत्युक्ते ते प्रत्ययाः सार्वधातुकाः एव किन्तु अपितः सन्ति इति कारणतः तेषु पञ्चदश प्रत्ययेषु नित्वं, साक्षात् नित्वं नास्ति तेषु. नित्वम् इत्युक्ते नकारः इत् यस्य सः. अत्र पश्यन्तु आवरणे लिखितमस्ति ञित् इति कथनेन यस्य ञकारः इत् अस्ति सः ञित्. किन्तु एते पञ्चदश प्रत्ययाः ञित् प्रत्ययाः न सन्ति, तेषु ञकारः इति संज्ञकः नास्ति. उदाहरणार्थं लङ् लकारं पश्यन्तु. लङ् इति कथनेन तत्र ञकारः अस्ति, लङ् लकारे ञकारः इति संज्ञकवर्णः, लृङ् लकारे अपि ञकारः इति संज्ञकवर्णः. तेषु साक्षात् णित्वम् अस्ति. सार्वधातुकम् अपित् इति सूत्रेण णित्वम् अध्यारोपितं भवति. किमर्थं चेत् ते प्रत्ययाः सार्वधातुकाः, अपि च तेषु पित्वं नास्ति अपितः, अतः णित्वत् प्रवर्तन्ते ते प्रत्ययाः. णित्वत् भवति चेत् फलं किम्? तदवगन्तुमेव अत्र क्निति च इति एकं सूत्रमस्ति. इदं सूत्रं गुणबाधकसूत्रं, पञ्चमः बिन्दुः. अधुना नूतनसूत्रम् आगतम्, इदं गुणबाधकसूत्रम्. सूत्रेषु विधायकसूत्राणि सन्ति सार्वधातुक अर्धधातुकयोः इति गुणविधायकसूत्रं, पुगन्तलघूपथस्य च इति अपि गुणविधायकसूत्रं. यत्र विधिः अस्ति तत्र एव तस्य निषेधः अपि भवितुमर्हति. कार्यमस्ति चेदेव कार्यस्य निषेधः अपि भवितुमर्हति खलु, लोके अपि तथा एव भवति. गुणकार्यं सूत्रद्वयेन भवति इति पठितं, किन्तु विधिनिषेधार्थम् एकं सूत्रमस्ति. गुणविधायकसूत्रं निषेधयितुम् इदं सूत्रं कार्यं करोति. क्निति च इति गुणबाधकसूत्रमस्ति, तस्मिन् प्रसङ्गे एकवारम् अवलोकयामः. इदानीं विजयलक्ष्मी भगिनी भवती पठतु.
गुणबाधकबाधकं सूत्रम् अनुवृत्तिं सहितं सूत्रं स्विङ् स्थिति च इकः गुणवृद्धिं न यः प्रत्ययः चित् अथवा ञित् अस्ति अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः न भवति. गुणस्य वृद्धेः च बाधकं सूत्रम् इदं सम्प्रति अस्माकम् अवधानं गुणे न तु वृद्धौ. किमपि अहं बहु न जानाति.
भवती शृणोतु भगिनि. प्रतिमा भगिनी भवती वदतु अस्मिन् प्रसङ्गे.
अनुवृत्तिसहितं सूत्रं क्वेङ्किति च इकगुणवृद्धिना अत्र यत्र क्वेङ्क् प्रत्ययः अस्ति तत्र गुणवृद्धिः नास्ति यत्र गिट् किट् अथवा इङ् अस्ति तस्य प्रत्ययस्य कारणे गुणः भवति तत् गुणः अत्र न भवति इदं सूत्रं गुणस्य बाधकं सूत्रमस्ति
तदेव इदं सूत्रं गुणबाधकसूत्रम् इत्युक्ते गुणनिषेधकसूत्रं पूर्वस्मिन् पाठे वयं सूत्रद्वयं पठितवन्तः तेन सूत्रद्वयेन गुणकार्यं भवति किन्तु अनेन सूत्रेण गुणकार्यं न भवति इति विषयः अनुवृत्तिसहितसूत्रं पश्यन्तु अत्र क्निति च इकः गुणवृद्धिः न अस्मिन् प्रसङ्गे अधोभागे लिखितमस्ति क्निति च इति सूत्रम् अधोभागे लिखितम् अस्ति एकवारं तदपि पठतु सूत्रस्य प्रसङ्गे लिखितमस्ति अधोभागे क्निति च इति प्रथमाध्यायस्य प्रथमपादस्य पञ्चमं सूत्रं यः प्रत्ययः गित् कित् अथवा नित् अस्ति
अपि च तस्य प्रत्ययस्य कारणात् अङ्गे एकः स्थाने गुण अथवा वृद्धिः भवति स्म सः न भवति गुणस्य वृद्धेः च बाधकम् इदं सूत्रम् सम्प्रति अस्माकम् अवधानं गुणे न तु वृद्धौ सम्प्रति वयं वृद्धेः न चिन्तयामः अस्माकम् अवधानम् अस्ति गुणे सो वी हेव् टु थिङ्क् अबौट् द गुण नाट् वृद्धि जस्ट् नौ क्विङ्क् इति सप्तमी अन्तं हलन्तं पदम् तस्य अर्थः एवं च ग च क च ङ च ते इत्संज्ञकवर्णाः यस्य सः प्रत्ययः क्विकन्तं तस्मिन् इति सप्तमी अन्तं यतः कार्यं तस्मात् पूर्वं भवति स्म तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति
उत्तमं भगिनी क्निति च इत्यस्मिन् प्रसङ्गे अधोभागे लिखितमस्ति तदेव भगिनी पठितवती पश्यन्तु अत्र किं लिखितमस्ति यः प्रत्ययः कित् गित् नित् उदाहरणं स्वीकुर्मः चेत् कित् प्रत्ययाः के इत्युक्ते यस्मिन् प्रत्यये ककारः इति संज्ञकवर्णः अस्ति सः प्रत्ययः कित् उदाहरणार्थं क्तिन् प्रत्ययः क्त्वा प्रत्ययः कथा प्रत्ययः क्तवतु प्रत्ययः क्तवतु प्रत्यये ककारः इति संज्ञकः अस्ति क्त्वा प्रत्यये ककारः इति संज्ञकः क्ता प्रत्ययः अस्ति क्तिन् अस्ति एतेषु प्रत्ययेषु आदौ ककारः अस्ति सः ककारः लषक्वतद्धिते इत्यनेन इति संज्ञकः भूत्वा अपगच्छति ते प्रत्ययाः कित् प्रत्ययाः तत्र प्रत्ययं निमित्तीकृत्य गुणकार्यम् अथवा वृद्धिकार्यं न भवति किन्तु अत्र अस्माकं विषयः तु गुणः एव वृद्धेः प्रसङ्गः अत्र नास्ति इत्युक्ते प्रत्ययः कित् अस्ति चेत् गुणवृद्धिनिषेधः भवति क्निति च इति सूत्रेण एतदवगन्तुम् एकम् उदाहरणं परिशीलनीयम् उदाहरणार्थं बुद्ध इति धातुः अस्ति बुद्ध धातोः कृतान्तरूपं बुद्ध बुद्ध धातोः क्तवत्वन्तरूपं बुद्धवत् प्रातिपदिकं बुद्धवान् इति प्रथमान्तं पदमस्ति तथा एव क्त्वान्तपदं बुद्ध्वा इति रूपं सिद्ध्यति तथा एव क्तिन् प्रत्ययान्तरूपं बुद्धिः अत्र किम् अभवत् बुद्धिति धातुः अस्ति क्त्वा प्रत्ययं योजयामः क्त्वा प्रत्ययः कित् अस्ति इति कारणतः गुणनिषेधः भवति तदर्थं बुद्ध् बोध् इति रूपं न स्वीकरोति गुणकार्यं न भवति अङ्गे प्रत्ययः कित् अस्ति इति कारणतः बुद्धियोगः क्त्वा तत्र कानिचन हल्सन्धिकार्याणि भूत्वा बुध्वा इति रूपं सिद्ध्यति एते कित् प्रत्ययाः परः सन्ति चेत् तत्र गुणकार्यं न भवति तथा एव गित् इति लिखितमस्ति गित् इति कथनेन तत्र घ्नु इति एकः प्रत्ययः अस्ति इत्युक्ते तस्मिन् प्रत्यये गकारः अस्ति आदौ सः गकारः इति संज्ञकवर्णः. तादृशेषु गित् प्रत्ययेषु अपि गुणकार्यं निषिध्यते अनेन सूत्रेण. अस्माकं तृतीयः विषयः अस्ति नित् प्रत्ययः. अयमेव विषयः नित् प्रत्ययः एव अत्र प्रसङ्गः, तस्य प्रसङ्गः अत्र अस्ति. पूर्वं किमुक्तमस्ति, सार्वधातुकप्रत्ययः अपित् प्रत्ययः नित्वत् कार्यं करोति. तादृशेषु अपित् प्रत्ययेषु यद्यपि साक्षात् नित्वं नास्ति, नित्वम् अध्यारोपितं भवति इति कारणतः तादृशेषु नित् प्रत्ययेषु अपि गुणः न सम्भवति.
एककार गकारस्य प्रतिनिधिः अस्ति वा? ककारं द्विवारम् आगच्छति.
खरिच इति एकं सूत्रमस्ति महोदय. आदौ गकारः अस्ति, गकारस्य स्थाने ककारः आयाति चर्त्वं भूत्वा. तत्र चर्त्वसन्धिः दायकसूत्रमस्ति खरिच. गच काच ञाच तेषाम् इतरेतरद्वन्द्वः क्नः. आदौ अस्मिन् समस्तपदे इतरेतरद्वन्द्वसमासः अस्ति. किमर्थं? गित् प्रत्ययः, कित् प्रत्ययः, नित् प्रत्ययः, गच काच ञाच द्वन्द्वसमासः अस्ति आदौ. अपि च सम्पूर्णसमस्तपदं बहुव्रीहिसमासयुक्तं पदं. कथम्? अत्र विग्रहवाक्यं पश्यन्तु. ज्ञः इतः यस्य सः क्नित्, क्नित् इति प्रथमान्तं पदमस्ति. किन्तु सूत्रे किं लिखितमस्ति? क्निति इत्युक्ते तस्मिन् परे. क्नः इतः यस्य सः तस्मिन् क्निति. क्निति इति सप्तम्यन्तं पदमस्ति. तदर्थमेव द्वन्द्वगर्भ बहुव्रीहिसमासः. बहुव्रीहिसमासस्य गर्भे द्वन्द्वसमासः अपि अस्ति.
भगिनि, तत्र चकारं सूत्रे चकारः अस्ति किल, तत् किं सूचयति?
अव्ययम्, अव्ययपदम् अहं सम्यक् न जानामि. कोऽपि वदतु.
पूर्वस्मिन् सूत्रे किमपि उक्तम् अस्ति इति कारणेन वा? किं सूत्रमस्ति
भगिनि? भगिनि, अष्टाध्याय्यां प्रथमोऽध्याये चतुर्थसूत्रमस्ति, न धातुलोप अर्थधातुके. तद् वदति धातु अवयवलोपनिमित्ते अर्थधातुके परे तन्निमित्तके इको गुणवृद्धिः, गुणवृद्धि न स्यात्. अनन्तरमस्ति निति च, तो तत्र तत्रापि गुणवृद्धिः न भवति, तद् अनुवृत्तिरूपेण भवति. अतः च पूर्वसूत्रं वदति गुणवृद्धिः न स्यात् न धातुलोपे अर्थधातुके. अनन्तरं सूत्रमस्ति निति च, तत्रापि गुणवृद्धिः न भवति, अतः च इति अव्ययम्. यदा महोदय उक्तवान् न पूर्वसूत्रे किमपि अस्ति वा इति पृष्टवान् न, पूर्वसूत्रे अस्ति गुणवृद्धिः न स्यात् पूर्वसूत्रे, चतुर्थसूत्रे. अण्ड् पञ्चमसूत्रमस्ति नीति च प्रथम अध्याये प्रथमपादे.
धन्यवादः भगिनि.
ऐ एम् ए क्लियर् भगिनि?
किं दृष्टवती इत्युक्ते अत्र अष्टाध्याय्यां प्रथमाध्यायस्य प्रथमपादस्य प्रथमं सूत्रं वृद्धिरादैच्यस्ति, तत्पश्चात् अदेङ्गुणः अस्ति. तृतीयं सूत्रम् इको गुणवृद्धि, चतुर्थं सूत्रं न धातुलोप आर्धधातुके, पञ्चमं सूत्रमस्ति क्निति च. क्निति च इत्यस्मिन् सूत्रे अनुवृत्तिसहितसूत्रं पश्यामश्चेत् गुणवृद्धि न इति लिखितमस्ति. तत् न इति पदं न धातुलोप आर्धधातुके इत्यस्मात् आगतम्. अपि च इको गुणवृद्धि इति सूत्रस्य पूर्णानुवृत्तिः अस्मिन् सूत्रे अस्ति. किन्तु अत्र च इति पदस्य आवश्यकता का इति प्रश्नः.
पूर्वमेव किमपि लिखितं तत्कारणेन च इति अत्रापि तद्वत् भवति इति लिखितमस्ति मम.
अहमपि सेम् चिन्तयामि, तदेव अहमपि चिन्तयामि. पूर्वं सूत्रद्वयेन गुणवृद्धि न इति, अतः च सूचयति गुणवृद्धि न,
अथवा गुणः च वृद्धि च न भवति इति भवितुम् अर्हति वा?
भगिनी सम्यक् उक्तवती, चतुर्थे सूत्रे गुणवृद्धि न भवति
इति सूत्रमिव. उगन्तलघुपदस्य च इति सूत्रम् अपि च इति अव्ययम् आगच्छति तद्वदेव अत्रापि किमपि पूर्वं लिखितमस्ति तत्र इगन्तम् इगन्तमपि गुणं भवितुम् अर्हति किल तत्कारणेन तत्र लिखितं पुगन्तलघुपदस्य च अत्रापि गुणं भवितुम् अर्हति इति तद्वदेव एतत् सूत्रमपि च इति एतदेव बोधयति पूर्वमेव एकं सूत्रमस्ति तद्वत् इव अत्रापि च इति लिखितम्
शुभदा भगिनी भवती वदतु इदानीं
गोमती भगिनी उक्तवती तत् साधु एव इति अहं मन्ये किमर्थम् इत्युक्ते चतुर्थे सूत्रे गुणवृद्धिः न इति उक्तमस्ति पञ्चमं सूत्रं इमिडियेट्लि फालोज़् अप् सो चतुर्थे सूत्रे यत् उक्तमस्ति तत् पञ्चमं सूत्रे अपि न इत्यस्य अनुवृत्तिः कृत्वा गुणवृद्धिः अत्र अपि गुणवृद्धिः न भवति इति उक्तस्य कारणेन न च इति भवति इति अहं मन्ये 115 इत्यस्मिन्
करपत्रे अपि भगिनी पश्यतु अनुवृत्तिसहितसूत्रं नीति च इकः गुणवृद्धिः न सो इकः गुणवृद्धिः न इति अनुवृत्ति आगतवती पूर्वसूत्रेषु अतः च इति सूचयति इकः गुणवृद्धिः न पूर्वं तदभवत् अतः अत्र अपि च इत्यनेन
अस्तु साधुचिन्तनमेव एतावता अत्र नित् प्रत्ययस्य प्रसङ्गे क्निति च इति सूत्रेण सार्वधातुकप्रत्ययाः अपित् प्रत्ययाः नित्वं स्वीकुर्वन्ति तादृशनित् प्रत्ययेषु क्निति च इति सूत्रेण गुणस्य अभावः गुणकार्यं न भवति अपि च वृद्धिकार्यमपि न भवति इति अग्रे किञ्चिदेव अस्ति किन्तु आगामिसप्ताहे अस्मिन् विषये चिन्तनं करिष्यामः इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः